जय जय मुनि सुदेवा पात्रं दैवं
जय
यतु भरत शोणीखण्डं विषादविवर्जितं जयतु गणपः तस्य क्षेमं सुधातु मनामुनिः जयतु रमणः तस्य आचार्यो महर्षिपुराचलः जयतु जगयोः माता पूता महेशविलासिनी।